इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। बेल्जियम देशीया राजकुमारी ऑस्ट्रेड इत्येषा या हि भारत प्रवासरता अस्ति सा अद्य नवदिल्ल्यां प्रधानमन्त्रिणं नरेन्द्र मोदिनं मिलिष्यति। एषा अस्य मासस्य अष्टम दिनांक पर्यन्तं भारत यात्रायाम् अस्ति इति सूच्यते। बेल्जियम देशस्य राजकुमारी अथ च रक्षामन्त्री थियो फ्रांकेन इत्येषः ह्यः नवदिल्ल्यां केन्द्रीय रक्षामन्त्रिणा राजनाथ सिंहेन सह मेलनं कृतवन्तौ। अत्रावधौ उभयोः देशयोः मध्ये रक्षा औद्योगिक सहयोगं वर्धयितुम् अनेकेषु उपायेषु चर्चाः सम्पादिताः, अपि च संस्थागत रक्षा सहयोगतन्त्रस्य अन्वेषणाय अपि सहमतौ अभवताम्। प्रधानमन्त्री नरेन्द्र मोदी अद्य दृश्य श्रव्य परान्तरजालीय माध्यमेन तिसृषु अर्थसंकल्पनापत्रस्य पश्चादेव आभासीय कार्यशालासु भागं ग्रहीष्यति। एताः कार्यशालाः सूक्ष्म लघु मध्यमोद्योगानां विकासाय तथा च विनिर्माणाय निर्याताय परमाणूर्जा अभियानाय निवेशाय व्यापाराय च आयोज्यन्ते। प्रधानमन्त्री अत्रावसरे उपस्थितान् जनान् अपि सम्बोधयिष्यति। वेबिनार इत्याख्या कार्यशाला सर्वकारीय अधिकारिणः उद्योगजगतः नेतारः व्यापार विशेषज्ञाः च भारतस्य औद्योगिक व्यापारोर्जा रणनीतिषु विचार विमर्शाय एकेन सहयोगी मञ्चत्वेन कार्यं करिष्यति। विदेश मन्त्री डॉ एस जयशंकरः अद्य ब्रिटेन आयरलैंड देशयोः आधिकारिक यात्रायां गमिष्यति। यात्रावधौ विदेशमन्त्री स्वकीयेन समकक्षेण विदेश सचिवेन डेविड लैमी इत्यमुना चर्चां विधास्यति तथा च अन्यैः गणमान्य जनैः सह मिलिष्यति। विदेश मन्त्रालयानुसारि भारत ब्रिटेन देशौ एकं व्यापकं कार्यनीतिकं सहभागित्वं विनिमयीकरोतीति। आयरलैंड देशस्य द्विदिवसीय यात्रा प्रवासे डॉ जयशंकरः स्वकीयेन आयरिश समकक्षेण साइमन हैरिस इत्येतेन सह मेलनं करिष्यति, अपि च भारतीय समुदायस्य सदस्यैः सहापि मेलनं विधास्यति। निर्वाचनायोगः अद्यारभ्य नवदिल्लीस्थिते भारतीयान्ताराष्ट्रिय लोकतन्त्र निर्वाचन प्रबन्धन संस्थाने समेषां राज्यानां केन्द्रशासित प्रदेशानां च मुख्य निर्वाचनाधिकारिभिः सह द्विदिवसीयं सम्मेलनं समायोजयिष्यति। ज्ञानेश कुमारस्य मुख्य निर्वाचनायुक्तस्य पदभारग्रहणानन्तरं प्रथमं हि तावत् एतत् सम्मेलनम् आयोज्यते। द्विदिवसात्मकं सम्मेलनं राज्यानां केन्द्रशासित प्रदेशानां च निर्वाचनाधिकारिभ्यः विचार विमर्शाय पारस्परिकावगमनाय च मञ्चं प्रदास्यति। रक्षा सचिवः राजेश कुमार सिंहः भारतीय वायु सैन्यबलस्य क्षमतावृद्धये अधिकार प्राप्त समितये ह्यः नवदिल्ल्यां रक्षामन्त्रिणं राजनाथ सिंहं प्रतिवेदनम् एकं प्रस्तुतवान्। समित्या प्रमुखेषु क्षेत्रेषु बलं प्रदत्तं तथा च भारतीय वायुसेनायाः अभीष्ट क्षमतावृद्धिगत लक्ष्यानाम् अवाप्तये अल्प मध्यम दीर्घावधिषु कार्यान्वयनाय अनुशंसा कृतास्ति। अमेरिका देशस्य राष्ट्रपतिः डोनाल्ड ट्रम्प इत्यसौ कथितवान् यत् मैक्सिको कनाडा देशयोः अद्य आरभ्य 25% शुल्कं निवारयितुं न सम्भावना वर्तते, येन हि अमेरिका देशे नूतनानां आर्थिक बाधानां सम्भावनायां वित्तीय विपणयः व्याकुलाः सन्तीति। आईसीसी चैम्पियंस ट्रॉफी इत्येतस्यां क्रिकेट प्रतिस्पर्धायाम् अद्य मध्याह्ने दुबय्याम् उपान्त्यचक्रके द्वन्द्वे भारत ऑस्ट्रेलिया दलयोर्मध्ये स्पर्धा भविष्यति इति वार्ताः।